अस्तु, अधुना अस्माकं वर्गे विद्याधर्याः पुनरावलोकनं जायमानम् अस्ति. अत्र गतवर्गे वयम् उद्देशविभागे, विद्याधर्याः उद्देशविभागे अथवा उद्देशग्रन्थे द्रव्याणां नाम्ना निर्देशः कथं भवति इति दृष्टवन्तः. तत्र अस्माभिः क्षम्यतां, पदार्थानां नाम्ना सङ्कीर्तनम् अथवा निर्देशः कथं भवति इति दृष्टवन्तः. तत्र द्रव्यं, गुण, कर्म, सामान्यम् इत्येषां परिचयं प्राप्तवन्तः. तदनन्तरं केचन मुख्यसिद्धान्ताः सन्ति, यथा निरूप्यनिरूपकभावः, आधाराधेयभावः, अनयोः अपि परिचयं प्राप्तवन्तः. तर्हि वर्गानन्तरं केचन प्रश्नाः आगताः आसन्. उदाहरणत्वेन अत्र एकं वाक्यमासीत्, आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति. आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः. तत्र बालसुब्रह्मण्यमहोदय किञ्चित् वदति वा, निरूपकनिरूप्यभावः कुत्र वर्तते तस्मिन् वाक्ये, कयोः मध्ये?
अत्र आधेय यज्ञदत्तः आधेय आसनम् अधिकरणम् अधिकरणता आसने अस्ति, आधेयता यज्ञदत्तस्य उपरि अस्ति. यदा आधेयता इति उच्यते तदा सम्बन्ध वार्ता भवति, कस्य आधेयता इति. एवमेव अधिकरणता यदा उच्यते कस्य अधिकरणता इति प्रश्नः उदेति. एतानि निरूप्य निरूपक इति सम्बन्धम् एतयोः मध्ये अस्ति इति ज्ञातव्यम्.
हा हा, बहु समीचीनं महोदय. तर्हि ससम्बन्धिकपदार्थौ द्वौ स्तः अत्र, अधिकरणता आधेयता, अनयोः मध्ये निरूपकनिरूप्यभावः, न तु आसनयज्ञदत्तयोः मध्ये इति ध्येयं. यतोहि वर्गानन्तरं प्रश्नः आगतः आसीत् यद् सोमवासरस्य वर्गानन्तरम्, आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति उच्यते चेत् अन्ततो गत्वा यज्ञदत्तस्य निरूपणं जातं खलु. हा, परन्तु एतस्य अर्थः अयं नास्ति यद् यज्ञदत्त आसनयोः मध्ये निरूपकनिरूप्यभावः अस्ति इति नास्ति, यतोहि यज्ञदत्तः इत्यस्य श्रवणेन आसनम् अपेक्षितम् इति कस्यचिदपि मनसि न आगच्छति. ससम्बन्धिकपदार्थौ न स्तः आसनं यज्ञदत्तः. परन्तु यथा महोदयेन उक्तम्, अधिकरणता आधेयता ससम्बन्धिकौ, अनयोः मध्ये एव निरूपकनिरूप्यभावः भवति. अपि च अधिकरणता आधेयता अनयोः मध्ये स्थितस्य निरूप्यभावस्य आधारेण यज्ञदत्तस्य वर्णनं कुर्मः. तावदेव. अस्तु, इति एकः प्रश्नः आसीत्. ततः अग्रे गत्वा द्रव्याणां नाम्ना निर्देशः प्राप्तः, अपि च गुणानां कर्मणः अपि. सामान्यम् इत्युक्ते किम् इति अपि किञ्चित् दृष्टवन्तः. तत्र एकः प्रश्नः आगतः आसीत्, रत्ना भगिन्याः प्रश्नः. भगिनी वदति वा?
आधेयता इत्युक्ते धर्मः वा इति प्रश्नः आसीत्.
हा, इत्युक्ते सप्तपदार्थाः के के भगिनि?
द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः. आधेयता इति कस्मिन् श्रेण्यां वर्तते इति मम प्रश्नः आसीत्.
हा, इति प्रश्नः आसीत्. आधेयता अथवा अधिकरणता द्रव्यमस्ति वा, गुणः अस्ति वा, कर्म अस्ति वा, सामान्यम् अस्ति वा, विशेषः, समवायः, अभावः तु अग्रे पश्येम. तर्हि कुत्र वर्तते इति किमपि चिन्तनं कस्यचित् अस्य विषये? अखिल,
आधेयता, क्षम्यतां भगिनि, श्रूयते खलु? आधेयता इति आदेयः यः अस्ति तस्य धर्मः अथवा भावः इति कृत्वा जातिः इति इत्युक्ते सामान्यम् इति यः श्रेणिः अस्ति तत्र एव वर्तते इति अहं चिन्तयामि. यथा पुस्तके पुस्तकत्वम् अस्ति तथा आदेयः यः अस्ति तस्मिन् आदेयता अथवा आदेयत्वं सः तु जातिः इति.
हा समीचीनम् इत्येव मम चिन्तनम्, अन्येषामपि आसीत्. अन्यत् किमपि चिन्तनम् अस्ति वा अस्य विषये? अस्तु, नूतनाः के के सन्ति रविमहोदयस्य अनन्तरं? केचन आगताः?
सरला अस्मि.
सरला भगिनी. अनन्तरं?
जयन्ती अस्मि भगिनी. नमस्ते.
जयन्ती भगिनी, हा, लिखितवती भवत्याः नाम. अनन्तरं कोऽपि अस्ति वा?
कक्षा भगिनी, एकः मम प्रश्नः अस्मिन् विषये, इदानीं तस्य विषये अहं चिन्तयामि. तत्र पश्यतु, पुस्तके तत्र तर्हि आसनं प्राणी इति कल्पयामः चेत् तत्र आसनं यदि चिन्तयेत् अहं यज्ञदत्तस्य भारं वहामि इति चिन्तयेत् तत्र तादृशचिन्ता अधिकरणता इति उच्यते इति अस्ति. तर्हि तत्र तादृशधर्मः यद्यपि भारं वहनम् इति धर्मः तत्र आधेयता सर्वदा अधिकरणे वर्तते, तथापि तादृश आधेयता यः कोऽपि आसने उपविशति तदा एव तत्र तस्मिन् अधिकरणता इति अस्ति वा, उत सर्वदा तत्र तादृशधर्मः विद्यते वा इति. यज्ञदत्तः वा यः कोऽपि तत्र उपवेष्टुं शक्यते, अतः तत्र आदेयता सर्वदा तादृश आदेयता सर्वदा भवति वा केवलं यदा अत्र उपविशामि इति सति एव तत्र तादृशधर्मः वर्तते वा इति प्रश्नः.
प्रायः यदा यज्ञदत्तः अधिकरणं भवति तदा एव भवितुमर्हति खलु तस्मिन् अधिकरणता, नो चेत् हा यज्ञदत्ते यज्ञदत्तत्वं पुरुषत्वम् इत्यादिकं भवति, किन्तु अधिकरणता तदा कल्प्यते यदा कोऽपि आधेयत्वेन उपविशति इति चिन्तयामि. किन्तु हा यथा भगिनी अपि उक्तवती, मम चिन्तनम् अस्ति जातिः अथवा सामान्यम् इत्युक्ते समानानां धर्मः सामान्यम् इति वदामः खलु, तर्हि बहूनि अधिकरणानि सन्ति इत्युक्ते तेषु अधिकरणेषु कश्चन उपविष्टः अस्ति आदेयः अस्ति इति कृत्वा तानि अधिकरणानि इति चिन्तयामः. बहुषु अधिकरणेषु अधिकरणता इति धर्मः अस्ति न वा? अस्ति. तेन समानानां धर्मः सामान्यम् इति कृत्वा अधिकरणता इति सामान्यम् अथवा जातिः स्यात् इति चिन्तनमासीत्.
यथा अधिकरणं भवति, यदा अधिकरणं भवति तदा अधिकरणता धारयति खलु, अधिकरणतां धारयति.
हा अधिकरणा तदा एव भवति तस्मिन् अधिकरणे. अस्तु, तर्हि प्रायः अधिकरणता सामान्यम् इत्यस्यां श्रेण्यामेव आगच्छति इति चिन्तयामि. अस्तु, तर्हि इतः अग्रे गच्छेम. सामान्यस्य विषये तत्र उक्तमासीत् परम् अपरं चेति द्विविधं सामान्यम् इति. तर्हि सामान्यम् इत्युक्ते किम् इति परिचयं प्राप्तवन्तः. समानानां धर्मः अथवा स्वभावः सामान्यं, तत्र गौः उदाहरणं दृष्ट्वा गोत्वम् इति गवि अस्ति, सर्वेषां गोषु तथा भवति इति कृत्वा समानानां धर्मः सामान्यम् इति. तत्र अन्तिमवाक्यं सव्यसाची महोदयः पठितवान्, तत्र कश्चन परिष्कारः अपेक्षितः यतोहि मया अन्यथा गृहीत्वा अन्यत् किमपि उक्तमासीत्. अतः सव्यसाची महोदय अन्तिमवाक्यं पठति वा सामान्यम् इत्यस्मिन् तथा च नवमीपुटे?
भगिनि, तथा च सामान्यपदार्थस्वीकारे
पदार्थास्वीकारे
क्षम्यतां तथा च सामान्यपदार्थास्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात्. अग्रे पठामि वा भगिनि अथवा
अग्रे?
अतः सामान्यं वश्यं स्वीकार्यं, तदेव शास्त्रे जातिः इति व्यवह्रियते. तल्लक्षणविचारः सङ्ग्रहानुसारेण एव भविष्यति. आम्, तत्र वयं किं चर्चितवन्तः इति सामान्यपदार्थस्वीकारे
वस्तुतः किञ्चित् दोषेण उक्तमासीत् मया. सामान्यपदार्थ सामान्यपदार्थ अस्वीकारे इत्युक्ते सामान्यम् इति पदार्थस्य अस्वीकारे न स्वीकुर्मः चेत् किं भवति?
अपूर्वगोव्यक्तेः ज्ञानं न स्यात् इत्युक्ते अन्य कोऽपि गायः अस्ति गो अस्ति चेत् सर्वं वयं न दृष्टं सर्वं संसारे ये गौः इति सन्ति वयं न जानीमः इत्युक्ते एकं दृष्ट्वा वयं जानीमः तस्य वर्णः कः कथं दृश्यते तदाधारेण अन्यसमये अन्यगोः पश्यामः चेत् पूर्वज्ञानानुसारेण वक्तुं शक्नुमः यः गोः अस्ति इति.
हा हा समीचीनं. तादृशज्ञानं तदा भवति यदा गोत्वम् इति जातिः इति परिचयः अस्माकं मनसि अस्ति. तदर्थम् अत्र उक्तं सामान्यम् इति पदार्थस्य अस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न भवति. अतः
जातिः न जानीमः चेत् तत्र ज्ञानः न भविष्यति इति. जातिः इति तस्य ज्ञानम् इति आवश्यकम्
आवश्यकम् अस्ति. अतः सामान्यम् इति विलक्षणपदार्थः अस्ति न्यायशास्त्रे. अतः सामान्यम् अवश्यं स्वीकार्यम् इति उच्यते. तदेव जातिः इति अपि. अस्तु महोदय, अग्रिमभागं पठतु कृपया. एकत्र अनेकजातीनां
वृत्तित्वनिरूपणं तद्विभागं सम्प्रति आह परं चेति द्विविधं सामान्यमिति दर्शितरीत्या सामान्यं सिद्धं. तत्र इदमुक्तं भवति पुस्तके पुस्तकत्वं सामान्यमस्ति तथैव पुस्तकं भक्षमाणरीत्या पृथिवी अतः तत्र पृथिवीत्वं जाति वर्तते. पुस्तके पूर्वोक्तरीत्या गुणोस्त इति द्रव्यत्वमपि अतः तत्र द्रवत्वं जातिरपि अस्ति.
द्रव्यत्वं
द्रव्यत्वं जातिरपि अस्ति. आम्, अत्र जालपुटे अहं तत्र चित्रमपि दृष्टवान्. तत्र प्रायशः अत्र विषये अपि इति दत्तमस्ति. इत्युक्ते अत्र पुस्तकं पश्यामः चेत् तत्र पुस्तके पुस्तकत्वम् इति सामान्यम् अस्ति. इत्युक्ते एकं पुस्तकं पश्यामः चेत् पुस्तके पुटाः सन्ति अन्यत्र अन्य कोऽपि अन्यसमये अपि अन्यत् पुस्तकं पश्यामः चेत् पुस्तके पुस्तकत्वम् इति सामान्यम् इत्युक्ते जातिः अस्ति. तर्हि अन्यत् समये पुस्तकं दृष्ट्वा एतत् पुस्तकम् अपि वक्तुं शक्नुमः. तर्हि पुस्तके पुस्तकत्वं सामान्यम् अस्ति. तत् पुस्तके अपि पृथिवी इति अस्ति. तर्हि पृथिवीत्वमपि जातिः अस्ति. तर्हि पुस्तके पुस्तकत्वम् अस्ति एवं पृथिवीत्वं जातिः अपि अस्ति. एवं कृत्वा पृथिवी रीत्या गुणः द्रव्ये अपि अस्ति. तर्हि द्रवत्वम् अपि जातिः पुस्तके अस्ति. तर्हि पुस्तके पुस्तकत्वम् अस्ति पृथिवीत्वम् अस्ति एवं द्रवत्वम् अपि क्षम्यताम् क्षम्यतां द्रव्यत्वम् अपि अस्ति इति जाति त्रयः
तिस्रः जातयः सन्ति.
तिस्रः जातयः. आम्
हा समीचीनं महोदय. तर्हि पृथ्वी इति द्रव्यस्य श्रेण्याम् अन्तर्भूतः खलु. तदर्थं पृथ्वीत्वं द्रव्यत्वं पुस्तकत्वं. तद्वत् तत् चित्रं किञ्चित् वर्णयतु महोदय. नीलरूपम् इत्यस्मिन्
नीलरूपम् इति द्वितीयम् अस्ति. नीलरूपम् अस्ति. तर्हि नीलरूपे वर्णम् अस्ति. तर्हि नीलत्वम् अस्ति. नीलम् इति एकं रूपम् अस्ति. तर्हि नीलरूपम् इत्युक्ते अन्यत् रूपाणि अपि सन्ति. तर्हि नीलरूपे रूपत्वमपि अस्ति. रूपम् इत्युक्ते रूपमिति गुणः. तर्हि गुणः अस्ति चेत् तत्र गुणत्वमपि अस्ति. तर्हि नीलरूपे नीलत्वम् अस्ति, रूपत्वम् एवं गुणत्वमपि अस्ति.
गुणत्वमपि अस्ति. अपि च एतदपि वक्तव्यमस्ति यद् रूपम् इति यदा वर्णयामः नीलरूपम् इति, तस्य अर्थः नीलवर्णः इत्येव. वर्णः इत्युक्ते अत्र कलर् इति. यतोहि वर्णः इति प्रयोगः शब्दस्य विषये अपि भवति खलु, वर्णः, वर्णमाला इत्यादिकं. तदर्थं तं भ्रमं निवारयितुम् अत्र सर्वत्र नीलरूपम् इति उच्यते. तर्हि नीलरूपे अपि तिस्रः जातयः, नीलत्वं, रूपत्वं, गुणत्वम् इति. पुनः उत्क्षेपकर्मणि, उत्क्षेपणकर्मणि.
तर्हि उत्क्षेपककर्मणि तत्र प्रथमे अस्ति उत्क्षेपणत्वम् इति अस्ति. तर्हि उत्क्षेपणत्वम् इति अन्य एककार्यं कर्मम् अस्ति. तर्हि कर्म अस्ति चेत् तत्र कर्मत्वम् इति अस्ति.
समीचीनमस्ति. तर्हि एकस्मिन् वस्तुनि अनेकाः जातयः भवितुम् अर्हन्ति इति अत्र दृष्टवन्तः. इदं पुस्तकम्, इदं पुस्तकम्, इदं पुस्तकम् इति एकाकारप्रतीतिः यदा जायते तदा पुस्तकत्वं सिद्ध्यति. तद्वद् नीलरूपः गुणः, अपर कृष्णरूपः गुणः इति तदा यदा भवति तत्र सर्वत्र गुणत्वम् इति भवति. अपि च कर्मणि कर्मणत्वं, कर्मत्वम्, अपि च उत्क्षेपणत्वम् इति अस्ति इति अत्र प्रदर्शितमस्ति. अस्तु, अग्रे गत्वा सत्ता इति एका अतिरिक्ता जातिः कुत्र कुत्र
भगिनि. एकः प्रश्नः अस्ति अस्मिन् परिच्छेदे. प्रथमवाक्यं परम् अपरं च इति द्विविधं सामान्यं, सामान्यं द्विविधं वा?
सत्यं सत्यं महोदय. तत्र नवमे पुटे अपि वयं दृष्टवन्तः खलु, सामान्यविभागे प्रथमवाक्यम् एव आसीत् परं परं च इति द्विविधं सामान्यम् इति.
किन्तु तस्य विवरणम् अत्र नास्ति किल.
अग्रे अग्रे आगच्छति. आम्, तर्कसङ्ग्रहे यथा मया उक्तं, बोल्ड् अपि च इटालिक्स् मध्ये यत्किमपि अस्ति तत् तर्कसङ्ग्रहस्य वाक्यं. यद्यपि वयं चर्चां कृत्वा सामान्यम् इत्युक्ते जातिः इति अवगतवन्तः, तथापि तर्कसङ्ग्रहे सामान्यस्य विवरणम् एवं दीयते, परम्परं चेति द्विविधं सामान्यम् इति. तस्य विषये अग्रे आगच्छति.
अस्तु, धन्यवादः.
अस्तु, नूतनतया केन आगतम्? कोऽपि अस्ति वा नूतनः? तर्हि एतानि नामानि सन्ति मम पार्श्वे: अखिला भगिनी, सव्यसाची महोदय, बालसुब्रह्मण्यमहोदय, विद्याशङ्करमहोदय, नागराजमहोदय, जयन्ती भगिनी, वेङ्कटेशमहोदय, रत्ना भगिनी, रविमहोदय, सरला भगिनी इति. अस्तु, अखिला भगिनी तर्हि अग्रे.
आं भगिनि, तद्विभागम् एकत्र अनेकजातीनां वृत्तित्वनिरूपणं.
भगिनि अग्रिमपृष्टे सत्ता अतिरिक्ता.
हो हो हो, क्षम्यतां क्षम्यतां. सत्ता अतिरिक्ता जातिः इति निरूपणं. परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति द्रव्यगुणकर्म कर्मणामपि एकविधं ज्ञानं वर्तते. एवञ्च शाबलेयः गौः, बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्ध्यति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जातिः सिद्ध्यति. सतः भावः धर्मः सत्ता अतिरिक्ता जातिः. इत्युक्ते यथा वयं पूर्वं दृष्टवन्तः तत्र एकविध गोज्ञानेन तत्र अन्यस्य गोः अपि ज्ञानं भवति. तद्वत् किमर्थं तथा भवति इत्युक्ते तत्र सर्वेषु सर्वासु गोसु गोत्वम् इति जातिः वर्तते इति कृत्वा तत्र एकस्याः गोः ज्ञानेन एव तत्र सर्वासु गोसु विद्यमानं गोत्वम् इति जातेः ज्ञानम् अस्माकं मनसि आगच्छति. तद्वत् द्रव्ये अपि तत्र तादृशसामान्यजातिः वर्तते. एतेन तत्र एकस्य द्रव्यस्य ज्ञानेन अपरस्य द्रव्यस्य ज्ञानमपि भवति इति कृत्वा तत्र द्रव्यम् इति सत् गुणः इति सङ् कर्म इति सत् इति वक्तुं शक्नुमः. तस्मिन् विद्यमानभावः अस्ति सत्ता इति.
हा समीचीनं. सत्ता इति कश्चन धर्मः पारिभाषिकशब्दः च इत्युक्ते भगिनि अस्तु सत् इति कीदृशपदं भगिनि?
सत् इति तत्र नामपदमेव खलु द्रव्यं सत् इति तत्र नपुंसकलिङ्गप्रथम एकवचनं.
हा इत्युक्ते शत्रन्तपदमस्ति.
हा शत्रन्तपदं सत्यं
शत्रन्तपदं. सत्तां सूचयति अथवा अस्तित्वं सूचयति. गुणः सन् तस्यैव पुल्लिङ्गरूपं. कर्म सत् अपि नपुंसकलिङ्गरूपं. तर्हि सत्ता इत्युक्ते यद्यपि लौकिकव्यवहारे सत्ता इति अस्तित्वम् अथवा सतः भावः इति वदामः, अत्र सत्ता इति कश्चन पारिभाषिकशब्दः पारिभाषिक टर्म् अस्ति. तर्हि सत्ता इति जातिः एतेषु पदार्थेषु एव वर्तते, द्रव्ये गुणे कर्मणि इति. सम्यक् वा? अस्तु तर्हि अग्रे अपि भगिनि अग्रिमपरिच्छेदमपि किञ्चित्.
आं भगिनि. सत्तायाः परत्ववर्णनं तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया. सैव परा जातिः परं सामान्यं. परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः. द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे नास्ति, तत्र सत्ता वर्तते. गुणत्वं सर्वेषु गुणेषु वर्तते परन्तु द्रव्ये नास्ति, तत्रापि सत्ता वर्तते. एवं कर्मत्वस्य अपि. तथा च जगति शतद्रव्याणि सहस्रगुणाः पञ्चाशत्कर्माणि चेत् शतद्रव्यत्वं सहस्रगुणत्वं पञ्चाशत् कर्मत्वम् आहत्य षट्शताधिक सहस्रसत्ता. इत्युक्ते इदानीं यथा भवती उक्तवती सत्ता इति कश्चन पारिभाषिक धर्म शब्दः अस्ति, तदपि एका जातिः अपि. सत्ता इति यः धर्मः अस्ति तत्तु जगति सर्वस्मिन् वस्तूनि सन्ति. इत्युक्ते यदा द्रव्यम् अस्ति इति स्वीकुर्मः चेत् द्रव्ये केवलं द्रव्यत्वं वर्तते, तद्वत् गुणे केवलं गुणत्वं, कर्मणि केवलं कर्मत्वं. परन्तु सत्ता इति यः धर्मः अस्ति स तु द्रव्ये अपि अस्ति, गुणे अपि अस्ति, कर्मणि अपि विद्यते इति कृत्वा तस्य परम् इत्युक्ते यस्य धर्मस्य अधिकवृत्तित्वम् अस्ति तत् परम् इति उच्यते. इति कृत्वा सत्ता इति तत्र परं जातिः अस्ति, परा जातिः अस्ति.
हा समीचीनम् इति एव सारांशः अस्ति. सत्ता इति बृहती जातिः, द्रव्यत्वस्य गुणत्वस्य कर्मत्वस्य अपेक्षया सत्ता बृहती जातिः, यतोहि द्रव्यगुणकर्मणि वर्तते इति. किन्तु द्रव्यत्वं केवलं द्रव्ये, गुणत्वं केवलं गुणे, कर्मत्वं केवलं कर्मणि इति कृत्वा द्रव्यत्वस्य अपेक्षया सत्ता बृहती जातिः अथवा परा जातिः, द्रव्यत्वम् अपरा जातिः इति व्यवहारः भवति. विद्याशङ्करमहोदय इत्येव भवतः प्रश्नः खलु? इति अस्ति. सत्ता इति केवलम् एतेषु पदार्थेषु द्रव्यगुणकर्मणि वर्तते इति. अस्तु अग्रिमपरिच्छेदः अस्ति पृथिवी. यथा वयं दृष्टवन्तः प्रथमे चित्रे सव्यसाची महोदयेन पठितं पुस्तकत्वं, पुस्तकम् इत्यस्मिन् तिस्रः जातयः सन्ति अथवा त्रीणि सामान्यानि सन्ति. तर्हि कस्य अपेक्षया किं परं सामान्यं, कस्य अपेक्षया किम् अपरं सामान्यम् इति अग्रिमपरिच्छेदे अस्ति. इत्युक्ते अत्र उक्तमस्ति द्रव्यत्वं सत्तापेक्षया अपरं, किमर्थं विद्याशङ्करमहोदय?
अत्र
अग्रिमपरिच्छेदे द्वादशे पुटे अत्र उक्तमस्ति द्रव्यत्वं सत्ता अपेक्षया अपरं, किमर्थम्?
हा, सत्ता बृहज्जातिः अस्ति द्रव्यत्वस्य अपेक्षया.
हा, इत्युक्ते द्रव्यत्वं न्यूनेषु वर्तते, न्यूनेषु पदार्थेषु वर्तते, केवलं द्रव्येषु वर्तते इति. द्रव्यत्वं सत्ता अपेक्षया अपरं. पृथ्वीत्वस्य अपेक्षया
द्रव्यत्वं परं, पराजातिः, द्रव्यत्वेन अन्तर्भूतः अस्ति.
हा, इति एव वार्ता अस्ति. अधिकेषु वर्तते पृथ्वीत्वं, पृथ्वीत्वस्य अपेक्षया अधिकेषु वर्तते इति. तत्र पराजातिः भवति द्रव्यत्वम् इति एव विचारः अत्र चित्ररूपेण करपत्रे प्रदर्शितं. विद्याशङ्करमहोदय परिशीलयति वा प्रथमचित्रं?
क्षम्यतां भगिनि, मम पुरतः करपत्रम् एतावत् नास्ति. हा, उद्घाटयामि तावत्. अन्य कोऽपि पठतु कृपया.
जयन्ती भगिनी.
तर्हि सामान्यम् इति करपत्रं वा?
सामान्यं, सामान्यम् इति करपत्रं यत्र चित्राणि वर्तन्ते.
आम् आम्, पठनं खलु,
पठनम् आरम्भं. आम्,
सामान्यं. विद्याधरीग्रन्थस्य दशमे पृष्ठे सामान्यम् इति पदार्थस्य विषये दृष्टान्तः दीयते. तत्र परम् अपरं चेति द्विविधं सामान्यम् इति अयं तर्कसङ्ग्रहः इति मूलग्रन्थस्य वाक्यम् इदानीमेव दृष्टम्. उदाहरणैः परमपरम् इति सामान्यद्वयम् इति उच्यते. अस्य चित्ररूपेण निरूपणं क्रियते अस्माकं चित्र भगिन्या अधः. अस्तु, प्रथमे चित्रे अधिकरणमस्ति पुस्तकं, द्वितीये चित्रे अधिकरणमस्ति नीलरूपं, तृतीये चित्रे अधिकरणमस्ति उत्क्षेपणकर्म. एषु त्रिषु अधिकरणेषु सामान्यानि सन्ति, तानि च आधेयानि. पुस्तकत्वम् इति सामान्यं, पृथ्वीत्वम् इति सामान्यं, द्रव्यत्वम् इति सामान्यं, सत्ता इति सामान्यं, तथैव च अग्रे द्वितीये तृतीये च चित्रयोः. अस्माकम् अवधानम् अस्मिन् भवेत् यत् सर्वप्रथमं सामान्यस्य अधिकरणं किं किं भवितुम् अर्हति इति चेत् द्रव्यं, गुणः, कर्म च. तदा किं सामान्यं, कस्य अपेक्षया परं, किं च कस्य अपेक्षया अपरम्. अत्र प्रथमचित्रं
परिशीलयतु भगिनि. तर्हि अवगतं खलु? सामान्यम् इति आदेयं वा अथवा अधिकरणं वा?
सामान्यम् इति आदेयमेव.
आदेयमेव, यतोहि कुत्रचित् वर्तते, द्रव्ये वर्तते. तस्य अधिकरणानि कियन्ति सन्ति इति अत्र पश्यामः.
त्रीणि उदाहरणानि स्वीक्रियन्ते. अत्र प्रथमे चित्रे तु पुस्तकम् इति स्वीकुर्मः. पुस्तके पुस्तकत्वम् इति सामान्यं वर्तते, पुस्तकत्वम् इति जातिः. पुस्तकम् इति पृथ्वीद्रव्यम् इति वयं जानीमः. अतः तस्मिन् पृथ्वीत्वम् अपि वर्तते. पुस्तकत्वस्य अपेक्षया पृथ्वीत्वं अपरा जातिः, इतोपि बृहती जातिः अस्ति. यतोहि पुस्तकं पुस्तकेन सदृशेन बहूनि पृथ्वीद्रव्याणि सन्ति, येषु पृथ्वीत्वं वर्तते.
हा, अस्तु. तर्हि पृथ्वीत्वं कीदृशी जातिः?
तदपि कीदृशी जातिः?
परा वा अपरा वा?
आम्, पुस्तकत्वस्य अपेक्षया पराजातिः.
पराजातिः, समीचीनं.
दोषं कृतं मया,
चिन्ता नास्ति.
पराजातिः, हा. परन्तु पुस्तकं तु द्रव्यम् इति बृहत् श्रेण्यां भवति. द्रव्यम् इति बृहत् श्रेणी अस्ति, बृहती श्रेणी. तर्हि द्रव्यत्वम् इति इतोपि पराजातिः अस्ति. येषु पुस्तकत्वं, घटत्वं वा शिलाखण्डत्वम् इति बह्व्यः जातयः सन्ति. येषु पृथ्वीत्वम् अपि अस्ति, अतः द्रव्यत्वं पराजातिः अस्ति इत्ययोः अपेक्षया. सर्वस्मिन् उपरि सत्ता इति सामान्यम् अस्ति, सत्ता एव बृहती जातिः. सर्वेषु द्रव्येषु वर्तते, अपि तु द्वितीये चित्रे रूपम् इति गुणः, गुणस्य परिशीलनम् अस्ति. तत्रापि नीलत्वं नीलरूपे अस्ति, नीलत्वम् इति सामा इति जाति.
अस्तु अस्तु, अन्यः कोऽपि करोतु, अभ्यासः भवति. हा समीचीनमासीत् भगिनि. अतः सत्ता, सत्तायाः अधिकरणानि सर्वेषाम् अपेक्षया अधिकानि खलु. यथा भगिनी उक्तवती, पुस्तकत्वं तु पुस्तके एव, किन्तु पृथ्वीत्वं केवलं पुस्तके न, अपि च सर्वेषु अपि तु सर्वेषु पार्थिवद्रव्येषु वर्तते पृथ्वीत्वम् इति कृत्वा पृथ्वीत्वम् इतोपि पराजातिः. द्रव्यत्वं तु सर्वेषु द्रव्येषु इति जानीमः, पृथ्वी जलं तेजसि वायो सर्वत्र द्रव्यत्वम् इति कृत्वा पृथ्वीत्वस्य अपेक्षया द्रव्यत्वं पराजातिः. सत्ता, सत्तायाः अधिकरणानि इतोपि अधिकानि इति कृत्वा सत्ता सर्वेषाम् अपेक्षया पराजातिः इति उच्यते. अस्तु, विद्याशङ्करमहोदय उद्घाटितं वा?
आं भगिनि.
अस्तु, अग्रिमचित्रद्वयं भवतः दायित्व.
नीलत्वविषय, नीलत्वम् इति रूपम् अस्ति, बहवः विषयाः बहुषु विषयेषु नीलरूपं भवति, किन्तु नीलत्वम् एका जातिः. रूपत्वम् इति बहवः बहूनि रूपाणि सन्ति, तस्मिन् एकं रूपं नीलरूपम्. अतः नीलत्वजातिः रूपत्वस्य जाति अपेक्षया अपरा जातिः, रूपत्वं परा जातिः. रूपत्वे बहूनि किं वदामि, बहुषु वर्तते, यथा पाटलीरूपं रक्तरूपम् इति. रूपम् इति गुणः, तथाविध बहवः गुणाः सन्ति, तदर्थं गुणत्वम् इति बृहत् अथवा परा जातिः. तस्मिन् रूपत्वम् एकविधजातिः अस्ति, तदर्थं रूपत्वं सामान्यजातिः, अपरा जातिः, गुणत्वं परा जातिः. तथा एव गुणत्वं तस्मिन् सत्ता अस्ति, सत्ता गुणत्वस्य अपेक्षया बृहत् जातिः. सत्तायां सत्ता इति परा जातिः, गुणत्वं सत्ता अपेक्षया अपरा जातिः.
हा, बहु समीचीनम् अस्ति महोदय. अग्रे
अग्रे कर्मविषये, किं बहूनि कर्माणि सन्ति, तस्मिन् उत्क्षेपणम् इति एकविधकर्म. उत्क्षेपणं कर्म इति एका जातिः, तस्मिन् कर्मत्वम् अस्ति, किन्तु अन्यकर्माणि अपि सन्ति, तदर्थम् उत्क्षेपण इति कर्म अपराजातिः, कर्मत्वम् इति पराजातिः. कर्मत्वम् अन्यकर्माणि अपि सन्ति, किन्तु उत्क्षेपणम् एकं जाति एव. तथापि कर्मत्वं तस्मिन् सत्ता अस्ति, सत्ता इति पराजातिः कर्मत्वस्य अपेक्षया. सत्ता तस्मिन् गुणरूपं कर्म इति सत्तायाम् अन्तर्भूतः अस्ति. कर्मत्वम् एकापि जाति, सत्तायाम् एका जातिः तत्.
हा अस्तु, तर्हि सत्ता कुत्र अस्ति अस्मिन् उदाहरणे?
सत्ता कर्मत्वस्य अपेक्षया पराजातिः,
पराजातिः. हा, कुत्र वर्तते सत्ता तृतीयचित्रे?
गुणेषु, कर्मणि, द्रव्येषु.
अस्तु अस्तु, समीचीनम्. अस्तु, अधिकरणं किम् इति पुनः वक्तव्यमासीत्, तद् तावदेव. अस्तु, इति परम् अपरं च इति सामान्यम् इति विचारः. इतः अग्रे सर्तुं शक्नुमः. पुस्तके द्वादशे पुटे नित्यद्रव्यवृत्तयोः विशेषास्त्वनन्ताः एव इति. वेङ्कटेशमहोदय पठति वा?
कुत्र भगिनि? क्षम्यतां,
द्वादशे पृष्ठे सामान्यम् इत्यस्य विवरणं सञ्जातम्. अग्रिमः पदार्थः अस्ति विशेषः, तस्मात् आरभ्य द्वादशे पृष्ठे.
उदाहरणेन तत्र उदाहरणेन विशेषपदार्थवर्णनं तत्र वा?
न, नित्यद्रव्यवृत्तयो.
ओ, नित्यद्रव्यवृत्तयोः, क्षम्यताम्. अस्तु, नित्यद्रव्यवृत्तयोः विशेषत्व अनन्ता एव, विशेषः तु अनन्ता एव. इति विशेषः निरूपितः गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इत्युक्तम्। विशेषविषये इत्थं वक्तव्यम्। अयं वैशेषिकैः एव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते। अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति। एवं विधः अयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः। तर्हि तत्र विशेषनिरूपणे तत्र पौर्वापर्य विचारे इत्युक्ते पूर्व
हा पूर्व पूर्वपर इत्यस्य भावः
किल तत्र गुणकर्मणयोः निरूपणावसरे तत्र पूर्वपरविचारे तत्र कर्म केचन आचार्याः तत्र तादृशभावः नास्ति इति तत्र तस्य तेषु तत्र तादृश तस्य अङ्गीकारं नास्ति।
वयं दृष्टवन्तः खलु गुणकर्मणः अस्तु पदार्थानां निर्देशावसरे क्रमः कीदृशः आसीत्? द्रव्यगुणकर्म इति
कर्म सत्यं
किमर्थं तथा आसीत् क्रमः?
यतः तत्र
कर्म अस्ति इति केचन न अङ्गीकुर्वन्ति एव खलु। सर्वं द्रव्यम् आश्रित्य तिष्ठति इति कृत्वा द्रव्यं प्रथमं, गुणः द्वितीयः, यतोहि गुणस्य सत्तायाः विषये मतभेदः नास्ति एव, सर्वे अङ्गीकुर्वन्ति इति। तदनन्तरं कर्म
कर्म नास्ति तत्र द्रव्यम् आश्रित्य तिष्ठति इति तस्य केचन आचार्याणाम् अङ्गीकारः नास्ति इति वा तत्र?
कर्मणः सत्तायाः विषये एव अङ्गीकारः नास्ति। कर्म इति अन्यतमः पदार्थः हा इत्येव पुनः अत्र उल्लिखितमस्ति।
अस्तु अस्तु तत्र तर्हि तत्र अयं विषयः नैयायिकैः एव अनुमन्यते। अत्र तत्र अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति इत्युक्ते तत्र तस्य अङ्गीकारः नास्ति इति कारणात् तस्य खण्डनम् अस्ति। तर्हि अन्यरूपेण तत्र सर्वजनसिद्धजातिपदार्थानन्तरं एवंविध विशेषपदार्थस्य निरूपणं क्रियते तत्र तस्य इतोपि विस्तारणार्थं वा तत्र तर्हि विशेषपदार्थवर्णनस्य
किमर्थं विशेषः अस्मिन् क्रमे अत्र अस्ति इति
कारणात्
विशेषः इति पदार्थः प्रथमतया वैशेषिकैः प्रणीतं, नैयायिकैः च अङ्गीकृतं। यद्यपि अपरेषु शास्त्रेषु खण्डनं वर्तते तथापि नैयायिकैः अनुमन्यन्ते। अतः अत्र सामान्यं तु सर्वजनसिद्धपदार्थः, तर्हि सामान्यं निरूप्य अनन्तरं विशेषः इति निरूप्यते इति। अत्र टिप्पणी अस्ति महोदय, पठति वा?
अधः किल कणादः वैशेषिकशास्त्र प्रणेता आचार्यः तत्प्रणीतं वैशेषिकशास्त्रं गौतमप्रणीतं न्यायशास्त्रं च सम्मील्य न्यायशास्त्रपाठनं प्रवर्तते। तर्हि तत्र नैयायिकैः अनुमन्यते इति तत्र कथनेन तत्र वैशेषिकशास्त्र प्रणेता तत्र कणादः प्रसिद्धः आचार्यः अनन्तरं तेन प्रणीतं वैशेषिकशास्त्रम् अपि च गौतमप्रणीतं न्यायशास्त्रं च सम्मील्य तत्र न्यायशास्त्रपठनं सर्वदा तत्र न्यायशास्त्रम् इति कथनेन तयोः प्रणीतशास्त्रविषयं सम्मील्य तत्र न्यायशास्त्रपठनं प्रवर्तते इति।
आं समीचीनम्। एकवारं हा सम्यक् महोदय, एकवारं महोदयेन उक्तमासीत् पदार्थनिरूपणपराः वैशेषिकाः प्रमाण इत्युक्ते पदार्थनिरूपणे वैशेषिकाणां नैपुण्यम् अस्ति, प्रमाणपराः नैयायिकाः इत्युक्ते पदार्थानाम् अस्तित्वम् इत्यादि विषये प्रमाणं नैयायिकाः ददति हा अतः एषः पदार्थः विशेषः इति पदार्थः वैशेषिकैः पदार्थनिरूपणे ये निपुणाः तैः एव
निपुणः
तैः एव प्रणीतम् इति कृत्वा नैयायिकाः अङ्गीकुर्वन्ति इति. अस्तु, इति वार्ता. तर्हि विशेषः इति नित्यद्रव्यवृत्तिपदार्थः, नित्यद्रव्येषु वर्तते विशेषः इति उक्तम्. इतः अग्रे नित्यद्रव्याणि कानि? प्रश्नः अस्ति
भगिनि. आं भगिनि, मया न अवगतं किं न अङ्गीकुर्वन्ति अन्ये जनाः इति.
अन्येषु विशेषः इति पदार्थस्य खण्डनमेव भवति इति अत्र उक्तं.
ते विशेषः इति पदार्थम् इति न अङ्गीकुर्वन्ति वा?
हा, इति भाति भगिनि. एकमेव वाक्यं दत्तमस्ति अस्य विषये, तथा एव चिन्तयितुं शक्नुमः.
अस्तु,
धन्यवादः. क्षम्यताम्, अहं विलम्बेन
द्वादशे पुटे स्मः. इदानीं वेङ्कटेशमहोदयेन नित्यद्रव्यवृत्तयः विशेषाः इति पठितम्. अस्तु, अस्तु. विशेषः इति अपि अन्यतमः पदार्थः. सामान्यम् इत्यस्य निरूपणं सञ्जातम्, अधुना विशेषः. अपि च विशेषः अनन्ताः इति उक्तम्. अनन्ताः इत्युक्ते अजस्राः, इन्फैनैट् इति. तर्हि विशेषः इति पदार्थः कुत्र वर्तते इति पश्येम. नित्यद्रव्यवृत्तिः इति उक्तं. नित्यद्रव्यम् इत्युक्ते किं? प्रथमतया द्रव्यस्य श्रेण्यां वयं दृष्टवन्तः, आकाशः, कालः, दिग्, आत्मा, मनः, नित्यद्रव्याणि इति. अधुना परमाणुः इति इतोपि एकं द्रव्यम् आगच्छति. परमाणुः इति अपि नित्यद्रव्यम् इति उदाहरणेन अग्रिमपृष्ठे परिशीलितम् अस्ति उदाहरणस्य द्वारा. अत्र उदाहरणम् एवं दीयते. एकं पाषाणखण्डं स्वीकुर्वन्ति. हा, पाषाणखण्डम् इत्युक्ते शिलाखण्डं स्वीकृत्य शिलाखण्डस्य खण्डनं भवति. पुनः पाषाणस्य खण्डनम् अथवा विभजनं भवति. अग्रिमपृष्ठे, त्रयोदशे पृष्ठे पश्यन्तु, तत्र क पाषाणः इति अस्ति. तस्य पाषाणस्य अथवा शिलाखण्डस्य द्विधा विभजनं भवति चेत् गपाषाणः, घपाषाणः इति पुनः पाषाणद्वयम्. पुनः गपाषाणस्य द्विधा विभजनं भवति, च पाषाणः, छ पाषाणः इति. पुनः च पाषाणस्य विभजनं, त पाषाणः, थ पाषाणः इति. तर्हि एवंविधरीत्या पुनः पुनः शकलीकरणम् अथवा खण्डनं कृत्वा कृत्वा तादृशस्तरं प्राप्नुमः यत्र पुनः विभजनम् अथवा खण्डनं न शक्यते एव. अस्तु, तादृशस्तरं प्राप्नुमः यत्र पाषाणस्य अवयवाः न सन्ति. अवयवाः इत्युक्ते भागाः अथवा पार्ट्स् इति. तादृशस्तरं यदा प्राप्नुमः यत्र पुनः विभजनम् अथवा खण्डनं न भवति, तत्र सः पदार्थः परमाणुः इति उच्यते. परमाणुः इति नित्यद्रव्यं. पार्थिवपरमाणवः भवन्ति, जलीयपरमाणवः भवन्ति, अपि च तेजसि अपि परमाणवः भवन्ति. यद्यपि पृथ्वी, जलं, तेजः, वायुः इति नित्यद्रव्याणि न सन्ति, तथापि परमाणुस्तरे तु तानि सर्वाणि नित्यद्रव्याणि एव. परमाणवः नित्यद्रव्याः, नित्यद्रव्याणि. परमाणुषु विशेषः इति वर्तते. पुनः परमाणुषु विशेषः किमर्थं वर्तते इति इत्यस्य प्रश्नस्य उत्तरम् एवं विवृण्वन्ति ते. इदानीं चित्रे पश्यन्तु, क पाषाणः इति अस्ति, तस्य शकलद्वयं ग अपि च घ इति. तर्हि ग पाषाणः घ पाषाणात् पुनः भिन्नः कथम् इति चिन्तने वयम् अवगन्तुं शक्नुमः यत् अस्तु, क पाषाणस्य अवयवाः अवयवौ भिन्नौ, ग च घ इति. ग पाषाणस्य पुनः अवयवौ भिन्नौ, च अपि च छ इति. तर्हि क पाषाणः ग पाषाणात् भिन्नः इति जानीमः. यावत्पर्यन्तम् अवयवाः तिष्ठन्ति तावत्पर्यन्तम् अवयवौ भिन्नौ अथवा अवयवाः भिन्नाः इति कृत्वा भेदं स्थापयितुं शक्नुमः. किन्तु परमाणुस्तरे तथा न भवति खलु, यतोहि परमाणुस्तरे अवयवः न भवन्ति एव. पुनः खण्डनं न कर्तुं शक्नुमः. अतः परमाणूनां मध्ये भेदस्थापनाय कश्चन पदार्थः आवश्यकः, सः एव पदार्थः विशेषः इति उच्यते. इति विशेषस्य सारांशः अस्ति उदाहरणत्वेन. तर्हि अत्र कोऽपि प्रश्नः वा अथवा किमपि चिन्तनम् अन्यस्य? अस्तु, नो चेत् अग्रे सरेम. रत्ना भगिनी, एते परस्परं भिन्ना इति.
अस्तु भगिनि, एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः कथं? प्रत्येकमवयवभेदेन, तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. परन्तु चरम शकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यं शकलं परमाणुः, तस्य च परस्परं भेदज्ञानं कथं भवेत्? अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः. एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्यकाः सन्ति इत्यपि स्वीक्रियते. यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते, तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः. अस्तु, तथा च परमाणुः भिन्नः. कुतः? त विशेषस्य स एव आश्रयः, न तु च परमाणुः. एवं विपरीतमपि ज्ञातव्यम्.
सारांशत्वेन भगिनि.
अस्तु अस्तु, एते शिलाखण्डाः अथवा विभागाः भिन्नाः इति कथं ज्ञातुं शक्नुमः इत्युक्ते, तेषां अवयवान् दृष्ट्वा वदामः. च इति छ इत्यस्य भिन्नः इति अवयवान् दृष्ट्वा. किन्तु अन्तिमपरमाणुः, परमाणुद्वयम् अस्ति चेत् अन्ते, तयोः भेदः कः इति कथं ज्ञातुं शक्नुमः? किमर्थम् इत्युक्ते परमाणुः अवयवः न सन्ति. अवयवः न सन्ति चेत् कथं ज्ञातुं शक्नुमः च परमाणुः द्वयोः भेदः कः इति? इत्युक्ते विशेषः इति एकः पदार्थः स्वीकृतः. सर्वेषु परमाणुषु विशेषः इति पदार्थः भवति इति स्वीकृतः. च परमाणोः यः विशेषः अस्ति सः च परमाणोः यः विशेषः अस्ति तस्माद् भिन्नः. इत्युक्ते ता विशेषः था विशेषात् भिन्नः इति स्वीकृत्य च परमाणुः भिन्नौ इति वयं स्वीकुर्मः.
हा, समीचीनमस्ति. अस्तु, तर्हि आहत्य परमाणुस्तरे अवयवानाम् अभावे सति भेदस्थापनाय विशेषः इति पदार्थः आवश्यकः आसीत्. सर्वे परमाणवः भिन्नाः, परस्परं भिन्नाः, तद्वत् परमाणुषु स्थिताः सर्वे विशेषाः अपि भिन्नाः, अपि च ते अनन्ताः इति विशेषस्य निरूपणमस्ति. इतः
एकः प्रश्नः अस्ति, च परमाणु तस्य खण्डनं कृत्वा
ओ अस्तु, तत्र हा भ्रमः स्यात्. उपरितने चित्रे स तु पाषाणः, पाषाणखण्डः, अत्र तु परमाणुः द्वितीयचित्रे.
अस्तु
अस्तु, इति अस्ति वा?
ओके
अस्तु, अग्रे रविमहोदय अग्रे पठति वा? रविमहोदय अस्ति किम्?
एकः प्रश्नः अस्ति.
अस्तु भगिनि, वदतु.
इत्युक्ते अत्र अवयवभेदेन अवयविनः भेदः इति स्थापितः खलु?
आं भगिनि.
पुनः अवयवस्य खण्डनेन खण्डानि सन्ति तयोः भेदेन अवयविनः ज्ञानं वा भेदः इति. परन्तु भेदः इत्युक्ते केवलं खण्डनं दृष्ट्वा कथं?
खण्डनं दृष्ट्वा न, अवयव अस्तु, अवयवाः भिन्नाः इति परिशील्य ज्ञायते. इति प्रश्नः वा भगिनि? इत्युक्ते घटद्वयम् अस्ति भवत्याः पुरतः, घटद्वयम् अस्ति चेत् घटद्वयमस्य घटद्वयस्यापि आकृतिः अथवा बाह्य आकारः, रूपं, वर्णः सर्वं समानम् इति चिन्तयतु.
इत्युक्ते गुणं दृष्ट्वा भेदः
न, गुणं दृष्ट्वा अपि नास्ति. गुणः समान अस्तु, नीलघटः भवत्याः पुरतः अस्ति चेत् नीलघटद्वयं, तत्र नीलरूपत्वं दृश्यते, समानः आकारः, सर्वं रूपं तु समानम् अस्ति, परन्तु न्यायशास्त्रानुगुणं घटद्वयं, न्यायशास्त्रानुगुणं सर्वे पदार्थाः परस्परं भिन्नाः. अस्तु, तर्हि भवत्याः पुरतः विद्यमानद्वौ घटौ अपि भिन्नौ, यतोहि एकस्य घटस्य कपालद्वयं भिन्नम्, अपरस्य कपालद्वयं भिन्नम् इति अवयवभेदेन पदार्थभेदः, अवयविनः भेदः इति. इति प्रश्नः वा भगिनि?
तदेव भगिनि, भेदः इत्युक्ते तत्र तु पृथक्त्वं न, परन्तु भेदः इत्युक्ते केचन अंशान् दृष्ट्वा वा?
केचन अंशान् दृष्ट्वा इत्युक्ते अंशान्
कपालिका, ए घटस्य आ घटस्य कपालिका भिन्ना, ई घटस्य कपालिका भिन्ना इति कथं वक्तुं शक्नुमः?
यतोहि अग्रे आगच्छति खलु, न्यायशास्त्रे अङ्गीकृतम् अस्ति परस्परं भिन्नाः, किमर्थम् अन्योन्याभावः वर्तते एव.
अन्योन्याभावस्य विषयः.
हा, स्वं विहाय न अन्यत्र अन्यत्र कुत्रापि एकः पदार्थः विद्यते इति सिद्धान्तः.
अस्तु 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 भगिनि,
अवयवभेदः अग्रे पश्येम तस्य विषये.
अस्तु
रविमहोदय, पठति वा अग्रे अथवा केवलं श्रवणम् इति वा? अस्तु सरला भगिनि.
अस्तु भगिनि.
तथा च
विशेषस्वीकारेण परमाणुना परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः. यदि विशेषस्वीक प्रत्येकं परमाणु विशेष अस्ति, तत् स्वीकरणं एकपरमाणु द्वितीयपरमाणु चेत् तयो मध्ये भेदं भवति. प्रत्येकपरमाणु विशेषमस्ति, तथा परमाणु अवयवो नास्ति, तथैव आकाशादि द्रव्याणामपि अवयवः न सन्ति. अतः परस्परभेदज्ञानाय आकाशात् अपि विशेषापेक्षा वर्तते. यथा वयं जानीमः, परमाणु तस्य अन्तिमखण्डं न भवितुं शक्नोति, तत्र नित्यं भवति परमाणु. तथैव अन्यानि द्रव्याणि यथा आकाशकालदिक, अत्र आकाशस्य उदाहरणमस्ति, तेषामपि अवयवा न सन्ति. तथैव परस्परभेदज्ञानम् आकाशादपि विशेष अपेक्षा वर्तते. तथैव आकाशविशेषमस्ति, अत्र नित्यद्रव्याणि अधिक कालते अपि विशेष द्रव्याणि सन्ति. परमाणुः नित्य आकाशादयस्य नित्या इति सर्वेषु नित्येषु द्रव्येषु विशेषसिद्धति इति. एतत् सर्वम् अभिसन्धायुक्तं नित्यद्रव्यव्यक्तयो विशेषाः. यथा परमाणु नित्यति, तथा आकाश अपि अन्य द्रव्याणि नित्या सन्ति, तेषु विशेषं वर्तते. अतः परमाणु अपि नित्यद्रव्येषु नित्यद्रव्यवृत्तयो विशेषः इति भवति. अनन्ता परमाणवः नित्यद्रव्याणि च तावन्तविशेषा इति तेषाम् अनन्त्यम् अपि सिद्ध्यति. परमाणव अनन्ता अस्ति, नित्यद्रव्याणि अतः नित्यद्रव्याणि अनन्ता अस्ति, तेषां विशेष वसन्ति.
समीचीनं. तर्हि नित्यद्रव्यवृत्तयः विशेषाः इत्युक्ते यथा परमाणुषु तद्वत् आकाशे अपि अस्ति. अपि च मम मनसि एकः प्रश्नः अस्ति, तेषु दिनेषु अस्माकं वर्गे काले, आत्मनि, दिशि अपि च मनसि विशेषः अस्ति इति चर्चितवन्तः वा वयं? कोऽपि स्मरति? न खलु. अन्यः अपि प्रश्नः, परमाणुषु तु भेदस्थापनाय विशेषः आवश्यकः इति समीचीनमेव, आकाशः तु एकः एव, तर्हि आकाशः अपरस्मात् आकाशात् भिन्नः इति भेदस्थापनं कथम्?
मम प्रश्नः आसीत् किमर्थं विशेषत्वम् आकाशे आवश्यकम्, एक एव अस्ति.
तथा पश्यामश्चेत् कालः अपि एकः. हा सत्यं भगिनि, उपाधिभेदेन इति तु सत्यं, किन्तु आकाशः तु एकः एव खलु. वस्तुतः एवमपि उच्यते यद् आकाशे आकाशत्वम् इति यः स्वभावः अस्ति सः धर्मः एव न तु जातिः. किमर्थं विद्याशङ्करमहोदय?
एकः एव आकाशः अस्ति, अन्य आकाशः नास्ति, किमर्थं जातित्वं न आवश्यकं?
समानानां धर्मः इति न वक्तुमेव शक्नुमः, यतोहि आकाशः एकः एव, तस्य समानाः न सन्ति. परन्तु आकाशे विशेषः इति तु अस्ति इति उक्तम् अत्र, प्रायः तद्वत् अपरेषु नित्यद्रव्येषु काले, आत्मनि, मनसि अपि स्यात् विशेषः. किमर्थं स्यात् इति? अस्तु विद्याशङ्करमहोदय समापयतु.
प्रायः आकाशः कालात् भिन्नः, तदर्थम् आकाशे एकं विशेषत्वम् अस्ति, आकाशः आकाशः अस्ति, कालः नास्ति, आत्मा नास्ति, मनः नास्ति. तादृशी चिन्तयामः चेत् आकाशे एकः विशेषः अस्ति, एकपदार्थः अस्ति आकाशः इति.
हा हा हा, प्रायः तदर्थम् इति, अपरस्मात् नित्यद्रव्यात् भिन्नः इति वक्तुम् इति भाति, यतोहि आकाशः अपि निरवयवी खलु, अवयवभेदेन आकाशस्य भेदं न कर्तुं शक्नुमः इति कृत्वा प्रायः तदर्थम् आकाशे विशेषः अस्ति. सरला भगिनी, का उक्तवती? सरला भगिनी खलु.
तदेव यत् वेङ्कटेशमहोदय उक्तवान् तदेव वक्तव्यम् आसीत् मया अपि. तत्र तद्वाक्यं पश्यामः चेत् अतः परस्परभेदज्ञानाय आकाशादौ अपि विशेषापेक्षया वर्तते. इत्युक्ते परस्परभेदज्ञानम् इत्युक्ते आकाशादौ तेषां परस्परभेदस्य भेदस्थापनार्थम् अत्र विशेषः इति स्वीकृतः इति.
समीचीनम् इति एव स्यात्. आकाशादौ इति अपि प्रथमपुटे पश्यामश्चेत् आकाशादारभ्य नित्यद्रव्याणि आरभन्ते खलु, आकाशः, कालः, दिगात्मा, मनः. हा प्रायः तथा स्यात्. आकाशादौ
अपि च परमाणुः अपि, क्षम्यताम्,
हा वदतु भगिनि.
अपि च परमाणुः अपि नित्यं आकाशादौ आकाशादि द्रव्याणि, क्षम्यतां, द्रव्याणि अपि, क्षम्यतां, द्रव्याणि अपि नित्यद्रव्याणि इति कृत्वा तत्रापि विशेषः अस्ति. यत्र इत्युक्ते यत्र यत्र नित्यत्वम् अस्ति तत्र तत्र विशेषत्वमपि वर्तते इत्यपि वक्तुं शक्नुमः इति चिन्तयामि.
सत्यं सत्यम् इति एव भाति, आकाशः अपरस्मात् नित्यद्रव्यात् कथम् इति. अस्तु अग्रे महोदय,
एकः प्रश्नः अस्ति वेङ्कटेशः. अत्र इदानीम् उदाहरणार्थं यद्यपि आकाशः एव एकः एव इति चिन्तयामः, परन्तु तत्र भारतदेशे विद्यमान आकाशः अमेरिकादेशे विद्यमान आकाशः इति तयोः किञ्चित् वयं भारतदेशे दृष्टिसम्भूत आकाशः अस्ति, अमेरिकादेशे तथा नास्ति इति, एकस्मिन् काले तथा वर्तते इति चिन्तयामः चेत् तत्र कश्चित् विशेषः यद्यपि तत्र उपाधिभेदात् तत्र पृथक् कृत आकाशः तस्मिन् कश्चित् विशेषः अस्ति इति कारणात् तत्र विशेषस्य आवश्यकं नित्यद्रव्येषु अपि आवश्यकं, नित्यद्रव्ये आवश्यकम् इति भवितुम् अर्हति वा इति चिन्तनम्
इत्युक्ते यदा
कालः अपि तत्र
उपाधिभेदः अस्माकं व्यवहारार्थं मनुष्याणां व्यवहारार्थम् उपाधिभेदः आकाशः एकः एव इति वदनेन अस्तु भवता यथा व्यवहारः कृतः अमेरिकादेशस्य आकाशः भारतदेशस्य उपाधयः आसन् देशः इति उपाधिः आसीत् देशः इति उपाधयः न भवन्ति एव इति चिन्तयतु एकस्मिन् समये उपाधयः नास्ति कालिकोपाधयः अपि न सन्ति दैशिकोपाधयः अपि न सन्ति किमपि नास्ति इति चिन्तयतु तदा आकाशात् कालः भिन्नः कालात् आत्मा भिन्नः इति कथं वक्तुं शक्नुमः तदर्थं विशेषः अस्ति इति चिन्तयामि अस्तु अस्तु इति विशेषस्य निरूपणं जातं
भगिनी क्षम्यतां किञ्चित् भिन्नप्रश्नः मम तर्हि अत्र सामान्यम् इति स्वीकृत्य भेदः न स्थाप्यते वा इत्युक्ते तत्र आकाशे आकाशत्वम् अस्ति काले कालत्वम् अस्ति पुस्तके पुस्तकत्वम् अस्ति इति कृत्वा इत्युक्ते सर्वेषु पुस्तकेषु पुस्तकत्वम् अस्ति तर्हि अत्र अवयवभेदः अन्ततो गत्वा विशेषः इत्यपि आवश्यकः भवति तत्र भेदस्थापनार्थं परन्तु यत्र आरम्भे एव तत्र पदार्थः भिन्नः
इत्युक्ते आकाशः आकाशे इति अधुना उक्तम् आकाशे आकाशत्वं सामान्यम् अस्ति वा जातिः आकाशत्वम् इति
इत्युक्ते आकाशे विद्यमानः धर्मः आकाशत्वम् इति वक्तुं न शक्नुमः वा इत्येव वस्तुतः तदेव मम प्रश्नः आसीत्
जयन्ति भगिनि किमपि उक्तं
मम मनसि धर्मः इत्युक्ते समूहः अस्ति चेत् समूहे विद्यमानः एकः धर्मः सामान्यम् अस्ति इति कृत्वा एकस्य पदार्थस्य सामान्यम् इति वदामः
हा वस्तुतः धर्मः इत्युक्ते स्वभावः तावदेव आकाशे आकाशत्वम् इति धर्मः एकः नियमः अस्ति सर्वे धर्माः जातयः न सन्ति किन्तु सर्वाः जातयः धर्माः इति पुस्तके पुस्तकत्वं न केवलं जातिः अपि तु धर्मः अपि न क्षम्यतां न केवलं धर्मः जातिः अपि यतोहि पुस्तकत्वं इत्यस्यां जात्यां सदस्याः सन्ति खलु बहूनि पुस्तकानि सन्ति परन्तु आकाशे आकाशत्वम् इति धर्मः कश्चन स्वभावः आकाशस्य न तु जातिः यतोहि समानाः न सन्ति आकाशस्य इति कृत्वा अस्य विषये अपि एकं करपत्रमस्ति अस्तु भगिनि
हा तत्र क्षम्यतां भगिनि तत्र यदा तथा अस्ति तर्हि तत्र आकाशे विद्यमानः धर्मः एव आकाशत्वं न तु जातिः सामान्यम् इति चेत् तर्हि आकाशत्वम् इति कस्यां श्रेण्याम् आगच्छति तर्हि पदार्थेषु
आकाशत्वं धर्मः इत्येव वक्तुं शक्यते इति भाति कस्यां श्रेण्याम् इति चिन्तनीयम् इदानीं धर्मः इति वदामः खलु समानानां धर्मः सामान्यम् इति धर्मः इत्युक्ते स्वभावः हा तर्हि चिन्तनीयं भवति धर्मः कस्यां श्रेण्याम् आगच्छति इति आरम्भे
हा इत्युक्ते प्रायः मम स्पष्टता नास्ति चिन्तयामि इत्युक्ते मम मनसि आसीत् तत्र सामान्यं जातिः इति तत्र सिनोनिम्स् इव इति इत्युक्ते तत्र
सिनोनिम्स् सत्यं सिनोनिम्स्
इति अस्ति चेत् तर्हि यदा तथा वदामः तर्हि समानानां धर्मः अथवा भावः इति जातिः सामान्यम् इति वदामः चेत् तर्हि तत्र समूहस्य अपेक्षा अस्ति खलु यथा जयन्ती भगिनी अपि उक्तवती आकाशः इति आकाशः अथवा कालः इति स्वीकुर्मः चेत् अत्र तादृशसमूहः नास्ति
तदर्थमेव अहम् उक्तवती सर्वाः जातयः धर्माः इति अवश्यम् अस्ति परन्तु सर्वे धर्माः जातयः न सन्ति आकाशत्वं तादृशम् अस्ति धर्मः किन्तु जातिः नास्ति तर्हि भवत्याः प्रश्नः अस्ति आकाशत्वं कुत्र स्थापयितुं शक्नुमः इति खलु
सत्यं
हा आकाशत्वं धर्मः एव न तु सामान्यम् इति प्रथमविचारः अधुना आकाशत्वं धर्मः सन् कुत्र भवितुम् अर्हति इति प्रश्नः अस्ति धर्मः सन् प्रायः गुणेषु अन्तर्भूतः इति चिन्तयामि, यतोहि चतुर्विंशतिगुणेषु धर्मः इत्यपि एकः अस्ति, धर्मः अधर्मः, परन्तु तत्र स्थापयितुं शक्नुमः वा न वा इति ममापि शङ्का अस्ति.
भगिनि, तदर्थमेव विशेषे स्थापितः खलु?
विशेषः इति पृथक् पदार्थः एव भगिनि, आकाशत्वम् इति विशेषेण अन्तर्भूतः खलु.
हा, तद् तद् अतः एव तस्य पृथक् श्रेणी नास्ति, विशेषे अन्तर्भूतः इति वदामि.
अस्तु, इत्युक्ते आकाशत्वमेव विशेषः इति.
इति तथा किमपि चिन्तनं स्यात्, आकाशत्वं कालत्वात् भिन्नः इति कृत्वा तथा किञ्चित् तत्र भवितुमर्हति इति जयन्ति भगिन्याः चिन्तनं खलु.
आं भगिनि,
इत्युक्ते परमाणुत्वम् इत्येव विशेषः इति भवति किल?
परमाणुत्वं जातिः अपि भवितुमर्हति खलु रत्ना भगिनी?
बहवः परमाणवः
तत्तु आनन्देन सामान्यम् इत्यस्मिन् स्थापयितुं शक्नुमः, किन्तु आकाशत्वं कालत्वं धर्मः अस्ति न तु जातिः, तर्हि अपि च पृथक् एव. आकाशत्वम् इति एकमेव अस्ति, अपरस्मात् नितरां भिन्नपदार्थः कुत्र भवितुमर्हति इति चिन्तनीयम्. अस्तु, चिन्तयामः अस्य विषये, प्रायः महोदयं पृच्छामः. अस्तु, इतः अग्रे सरेम. समवायः इति अग्रिमः पदार्थः. सरला भगिनि, जगन्नाथमहोदय पठति वा? जगन्नाथमहोदय, चतुर्दशे पुटे.
चतुर्दशे पुटे समवायसाधिकारः वा, समवायसाधन साधनप्रकारः वा? द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ, ततः समवायं निरूपयति. समवायस्त्वेक एव इति, इत्थं हि समवायसाधनम् आहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्करेच्छा भवति, ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवञ्च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. परन्तु घटोत् पतिर्यत्र भवति तत्र कपालद्वय संयोग संयोगानन्तरम् एवं कदाचित् भवेत् वा, यत् घटः अन्यत्र स्थितः, कपालः अन्यत्र, ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः.
हा, एतावत् पर्यन्तं किं बुद्धम् इति महोदय, स्थूलरीत्या?
समवायसाधनम्
अग्रिमपदार्थः समवायः, आहुः इत्युक्ते, आहुः इत्युक्ते वदन्ति इति, तावदेव. अग्रे समवायं
वदन्ति. एकस्य पुरुषस्य द्वौ हस्तौ स्तः, ते तस्य साधारणतया एकस्मिन् स्थाने भिन्नभिन्न स्थानयोः स्तः, किन्तु यदि सः नमस्कारं कर्तुमिच्छति चेत् तर्हि हस्तद्वयोः उत्पद्य उत्थाय संयोगं कृत्वा आञ्जलिमुद्रां करोति.
तदा हस्तयोः संयोगः इति उच्यते. अत्र वार्ता अस्ति यत् हस्तयोः मध्ये कीदृशसम्बन्धः इत्युक्ते संयोगसम्बन्धः इति वदामः. अस्तु, संयोगः इति कश्चन गुणः चतुर्विंशतिगुणेषु अन्तर्भूतः. द्रव्ययोः मध्ये सर्वदा संयोगः भवति. इदानीं पात्रे जलं स्थापयामि. पात्रम् इति पार्थिवद्रव्यं, जलम् इति द्रव्यं खलु. तयोः मध्ये संयोगः भवति. उत्पीठिकायां मम हस्तं स्थापयामि. मम हस्तः अपि द्रव्यम्, उत्पीठिका अपि द्रव्यं. तयोः मध्ये संयोगः. संयोगः द्रव्ययोः मध्ये विद्यमानः सम्बन्धः. यदा द्रव्ये पृथक् भवतः तदा संयोगः अपि नश्यति इति अत्र उक्तं. भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. एकवारं नमस्कारे च पूरितं भवति चेत् पुनः विविक्तौ भवतः इति. अस्तु, परन्तु अग्रिमबिन्दुं पठतु. तत्र किं पठितमासीत्?
परन्तु घटोत्पत्तिर्यत्र भवति तत्र कपालद्वयं संयोग अनन्तरम् एवं कदाचित् भवेत् वा यद्घटः अन्यत्र स्थितः कपाल अन्यत्र, ततः कपालद्वयं संयोगानन्तरम् उभयोरपि सम्बद्धः. यदि घटः पतति तर्हि तस्य
कपालः इति जानाति खलु. कपालः इत्युक्ते घटस्य अवयवः खलु. अत्र प्रश्नः अस्ति यत् घटः अस्ति, कपालः अस्ति, तर्हि कुत्रापि लोके तादृशी स्थितिः अस्ति वा यत्र घटः पृथक् कपालः पृथक् इति?
पातुं समये घटः न भवति, कपाल एव. तर्हि
घटः पतति चेत्, घटः भग्नः जातः इति चिन्तयतु, तदा घटः एव नास्ति,
कपाल एव तिष्ठति. कपालौ तिष्ठतौ वा कपालाः,
कपालौ तिष्ठतः. परन्तु यदा घटस्य निर्माणं भवति कपालद्वयसंयोगानन्तरं तदा तादृशी स्थितिः भवति वा यत्र घटः पृथक् कपालः पृथक्तया तिष्ठति? तादृशी स्थितिः कदाचित् न भवति इति कश्चन भेदः अस्ति अथवा काचित् भिन्नता अस्ति. संयोगः तत्र भवति यत्र पूर्वविविक्तस्थितिं प्रति गन्तुम् अर्हतः द्वे द्रव्ये. परन्तु घटकपालयोः मध्ये तादृशी स्थितिः नास्ति. अस्तु, इति प्रश्नः, भवितुम् अर्हतः वा न इति. अग्रिमबिन्दुं पठतु.
घटस्य तद्रूपस्यापि च एवमेव चिन्तनीयम्. किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बद्धम् इति सम्भाव्यते? बिलस्य मुखे सर्पः वर्तते.
द्वितीयबिन्दुं किञ्चित् कृपया.
घटस्य रूपस्य अपि च एवमेव चिन्तनीयं. घटस्य रूपं यत् घटस्य विशेषरूपं यदस्ति तस्य विषये अपि भग्नं भवति चेत् किमपि किं भविष्यति इति चिन्तनीयम्.
घटस्य तद्रूपस्य इत्युक्ते घटः अस्ति, घटे कश्चन किञ्चन रूपं भवति एव. इत्युक्ते घटस्य नीलवर्णः अस्ति चेत् घटस्य नीलरूपम् इति वदामः. तर्हि लोके कदापि तादृशी स्थितिः भवति वा यत्र घटः एकत्र घटस्य नीलरूपम् अपरत्र, तथा भवितुमर्हति वा?
न, न भवति. नीलवर्णः तु गुणम् एव.
इति अस्ति, यत्र घटः भवति तत्र तस्य रूपमपि भवति. इत्युक्ते यत्र द्रव्यं भवति तत्र तस्य गुणः अपि भवति इति खलु वार्ता. अग्रे.
बिलस्य मुखे सर्पः वर्तते. बिल इत्युक्ते
सर्पस्य गृहं. बरो
बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते. प्रसर्पणरूपा इत्युक्ते किम्?
अत्र रूपा इत्यस्मिन् भ्रमः मास्तु. रूपा इत्युक्ते गुणः नास्ति, रूपम् इति गुणः नास्ति. प्रसर्पण इति क्रिया इति चिन्तयतु. अस्तु, सर्पः सर्पः चलति खलु, तस्य क्रिया प्रसर्पणम् इति उच्यते. इदानीं तादृशी स्थितिः अस्ति वा यत्र सर्पः एकत्र, सर्पे विद्यमान सर्पे या क्रिया भवितुमर्हति सा क्रिया अपरत्र इति तादृशी स्थितिः अस्ति वा कुत्रचित् इति?
न
भवति. अग्रिमं पठतु.
एकस्मिन् ह्रदे घटः पतितः, घटः ह्रदतलं गतः, घटत्वं तु जलोपरि तरति इति द्रष्टं वा केनचित्? ह्रद इत्युक्ते किं?
सरोवरः, सरस्, पाण्ड् इति लेक् वा
पाण्ड्. एकस्मिन् ह्रदे घटः पतितः, ह्रदतलं गतः,
ह्रदतलम् इत्युक्ते अधोभागे घटः गच्छति. अस्तु,
आम् आम्,
परन्तु घटे घटे विद्यमानः धर्मः कः?
नीलरूपम्.
न, घटे विद्यमानगुणः नीलरूपम् इति सत्यं, किन्तु घटे विद्यमानः धर्मः?
धर्मः पृथ्वी.
हा, पृथ्वीत्वम् अवश्यम् अस्ति, किन्तु घटत्वम् इति अपि अस्ति खलु घटे. तर्हि प्रश्नः कः?
घटत्वं तु जलोपरि तरति इति द्रष्टं वा केनचित्? केनापि फ्लोटिङ्ग् घटः इति अस्ति?
न न, घटः फ्लोटिङ्ग् नास्ति, घटः अधः गच्छति, किन्तु घटत्वं फ्लोटिङ्ग् अस्ति वा इति प्रश्नः.
ओ अस्तु अस्तु, घटत्वं तु जलोपरि, अस्तु अस्तु, आमां, घटत्वं घटात् पृथक् कर्तुं न शक्यते इति?
न शक्नुमः खलु, यत्र घटत्वं भवति तत्र घटः भवति तत्र घटत्वम् इत्युक्ते घटः एकस्मिन् प्रकोष्ठे घटत्वम् अपरस्मिन् प्रकोष्ठे इति स्थितिः नास्ति एव लोके कुत्रापि खलु.
आम् आम्.
तर्हि यान् बिन्दून् भवान् पठितवान् अधुना, चत्वारः बिन्दवः, तत्र सर्वत्र उत्तरं प्रश्नस्य उत्तरं न इत्येव अस्ति. घटः कपालं विहाय न तिष्ठति, घटस्य रूपं घटं विहाय न तिष्ठति, सर्पे प्रसर्पणक्रिया तत्रैव भवति, विहाय इति नास्ति. घटे घटत्वम् अस्ति अथवा पुस्तके पुस्तकत्वम् अस्ति, विहाय इति नास्ति. तर्हि अनयोः मध्ये, नाम घटकपालयोः मध्ये अथवा घटघटरूपस्य मध्ये, प्रसर्पण सर्प इत्यनयोः मध्ये अथवा घटत्वं घट अनयोः मध्ये कश्चन सम्बन्धः स्यात्. अस्तु, सः सम्बन्धः संयोगसम्बन्धः नास्ति. संयोगसम्बन्धः कुत्र भवति? आरम्भे यद् भवान् पठितवान्
भिन्नद्रव्याणि स्थातव्यं वा?
हा, द्रव्ययोः मध्ये एव भवति संयोगसम्बन्धः, तादृशद्रव्ये ये पृथक् भवितुम् अर्हतः तत्र. अधुना नूतनसम्बन्धः आवश्यकः, सः सम्बन्धः एव समवायः इति. अस्य विषये इतोपि अग्रे किञ्चित् दत्तमस्ति, पश्येम. अखिला भगिनी अग्रे पश्यति वा, पठति वा?
आं भगिनि.
प्रायः चित्रं किञ्चित् चित्रस्य विवरणं दत्त्वा.
अस्तु भगिनि, तर्हि प्रथम तत्र चित्रद्वयम् अस्ति वस्तुतः अथवा कोष्ठद्वयं. तत्र प्रथमचित्रे अस्ति द्रव्यं, द्रव्यम् अपि च द्रव्ये द्रव्यम् अस्ति इत्युक्ते द्रव्यमिति अधोभागे अस्ति सः आधारः, उपरि भागे अस्ति सः तु आदेयः. तर्हि द्रव्ये द्रव्यं भवति, द्रव्ये गुणः, द्रव्ये क्रिया, द्रव्यगुणगुण कर्मसु तत्र सामान्यं, नित्यद्रव्ये विशेषः इति भवति. अत्र तु
तत्र
अस्तु
सामान्य अधिकरणानि प्रदर्शितानि. अस्तु, तस्य अधोभागे किञ्चित् यद् अस्ति तद् किञ्चित् विवृणोतु.
हा, सत्यं. तदेव किञ्चित् मम भ्रमः जातः अत्र किम् अस्ति इति. हा, कपालादि अवयवाः घटादि अवयविनः, इत्युक्ते घटः इति अवयवी अस्ति, कपालादि अवयवाः सन्ति. तर्हि घटकपालयोः मध्ये, इत्युक्ते अवयव अवयविनोः मध्ये अत्र समवायः इति सम्बन्धः वर्तते. तद्वत् द्रव्यं गुणवत् इत्युक्ते द्रव्ये गुणः अस्ति इति कृत्वा द्रव्यं गुणवत् अस्ति. द्रव्ये यदा गुणः अस्ति, रूपादिगुणाः सन्ति, तर्हि तत्रापि समवायसम्बन्धः. द्रव्यं क्रियावत् अपि, इत्युक्ते यतोहि द्रव्ये क्रिया अपि वर्तते, तर्हि द्रव्यक्रिया द्रव्यक्रिययोः मध्ये यः सम्बन्धः अस्ति तदस्ति पुनः समवायः इति. तद्वत् जातिः यदा घटादि व्यक्तिः इत्युक्ते द्रव्यगुणकर्म कर्मसु यदा जातिः इति अस्ति, अत्र उदाहरणमस्ति घटः इति. घट इति व्यक्तिः अस्ति, तस्मिन् यदा घटत्वम् इति जातिः वर्तते तयोः मध्ये, इत्युक्ते घटत्वं घटः तयोः मध्ये अपि समवायः इति सम्बन्धः. नित्यद्रव्यं नित्यद्रव्यविशेषः वर्तते इति इदानीमेव वयं दृष्टवन्तः, तत्रापि समवायः इति एव सम्बन्धः वर्तते. इत्युक्ते विशेषः नित्यद्रव्ये समवायसम्बन्धेन अस्ति. तद्वत् घटत्वं घटे समवायसम्बन्धेन, क्रियाद्रव्ये समवायसम्बन्धेन, गुणः द्रव्ये समवायसम्बन्धेन, अवयवः अवयवी अवयवी अवयवेषु समवायसम्बन्धेन.
हा अस्ति. जगन्नाथमहोदय स्पष्टं वा?
किञ्चित् ध्वनिमुद्रणं पुनः
अस्तु अस्तु, सोमवासरे चर्चयामः. किन्तु भगिन्या सुष्ठु निर्दिष्टमस्ति अत्र, कपालः इति अवयवः अस्तु, कपाले घटः इति अवयवी समवायसम्बन्धेन भवति, तयोः मध्ये समवायः इति सम्बन्धः, न तु संयोगः. भवान् अपि पठितवान् घटकपालयोः समवायः, केवलम् एरो एरो इति शरः प्रदर्शितः अस्ति यतोहि किं कस्मिन् अस्ति इति प्रदर्शयितुं, तावदेव. रूपं द्रव्ये अस्ति, तदर्थम् अधोगामिनी शरः, आश्रयः इति स्थापयतु तत्र. अस्तु, किं वक्तुं शक्नुमः तत्र? रूपं द्रव्ये समवायसम्बन्धेन अस्ति, नाम द्रव्यं यत्किमपि भवतु, पुस्तकं वा घटः वा, तस्मिन् गुणः रूपादयः गुणाः समवायेन भवति इति. तादृश उदाहरणानि, क्रियावत् सर्पः इति क्रियावान् इति अस्ति खलु, तस्मिन् सर्पणक्रिया, सर्पणक्रिया समवायेन सर्पे, तद्वदेव. घटादिव्यक्तिः, व्यक्तिः इत्युक्ते सदस्यः, एकस्यां जातौ यः कोऽपि सदस्यः सः व्यक्तिः. तर्हि हा, घटत्वादिजातिः व्यक्तौ समवायेन अस्ति, तयोः मध्ये समवायसम्बन्धः, न तु संयोगः. विशेषः अपि च नित्यद्रव्यं तत्रापि समवायः इति. बुद्धं वा महोदय?
धन्यवादः.
अस्तु, अखिला भगिनी अग्रे अग्रिमपरिच्छेदं किञ्चित्.
सः सम्बन्धः एव समवायः, अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः. तत्र आश्रयाणाम् आदेयानां च नानात्वेपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते. यथा इदानीमेव अस्माभिः चर्चितम्, अत्र यः सम्बन्धः विद्यते अवयव अवयविनोः अथवा गुणद्रव्ययोः अथवा गुणगुणिनोः क्रियाद्रव्ययोः अपि च जातिव्यक्तियोः विशेषनित्यद्रव्ययोः मध्ये स च सम्बन्धस्य सः सम्बन्धः, तस्य नामकरणं कृतं समवायः, समवायसम्बन्धः इति. तत्र यद्यपि भिन्नभिन्नव्यक्तिषु समवायसम्बन्धः वर्तते, लाघवार्थं तत्र एकः एव समवायः इति स्वीकृतमस्ति, इत्युक्ते एकः एव समवायः इति स्वीकृतः अस्ति. यतोहि तत्र तत्र अवयवावयविनोः गुणगुणिनोः इति भिन्नभिन्नस्थलेषु यद्यपि वर्तते, परन्तु सम्बन्धः तु एकः एव इति स्वीकृतं तत्र लाघवगौरवविषये अग्रे आयास्यति इति चिन्तयामि.
हा समीचीनमस्ति भगिनि. तर्हि लाघवगौरवम् इति महान् विषयः नास्ति, पठन्ति चेत् एकवारम् अवगन्तुं शक्नुवन्ति. लाघवम् इत्युक्ते विचारसौकर्यं, येन सुलभतया विषयम् अवगन्तुं शक्नुमः, तादृशमस्ति लाघवं. गौरवम् इत्युक्ते यत्र विचारसौकर्यं नास्ति इति गौरवं. तर्हि भगिनि, प्रायः लाघवगौरवम् इत्यस्मिन् भागे अन्तिमपरिच्छेदम् अन्तिमवाक्यं पठति वा? तथा च
तथा च आश्रयाणाम् आदेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवम् इति लाघवाय विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते. इत्युक्ते यथा भवती इदानीम् उक्तवती, अत्र विचारसौकर्यं लाघवं स्वीकुर्मः चेत् अत्र विचारसौकर्यम् अस्ति इति कृत्वा गौरवस्य अपेक्षया लाघवमेव स्वीकृतं. लाघवं स्वीकृतम् इति कारणात् तत्र एक एव समवायः अस्ति इत्यपि स्वीकृतः अस्ति.
समवायः तु एकः एव इति उक्तं, किमर्थं? विचारसौकर्याय इति अस्ति. समीचीनं. तर्हि हा, एवमपि वक्तव्यमस्ति यद् अत्र प्रश्नः उदेति खलु, संयोगाः भिन्नाः किन्तु समवायः किमर्थम् एकः एव इति, तत्र किं चिन्तनं भवताम्?
क्षम्यतां भगिनि, पुनः पृच्छतु.
अत्र प्रश्नः उदेति खलु, प्रायः यथा संयोगाः भिन्नभिन्नाः परन्तु समवायः तु एकः एव, किमर्थं स्यात् तथा इति? किं विद्याशङ्करमहोदय?
संयोगः कथं भिन्नः? एकः एव संयोगः न वा? संयोगसम्बन्धः एकः एव न वा?
हा, किन्तु इदानीं पुस्तक उत्पीठिकयोः मध्ये यः संयोगः, सः संयोगः भिन्नः खलु?
कस्मात् भिन्नः?
हस्तयोः मध्ये विद्यमानसंयोगात् इति खलु?
तत्र संयोगः यदा विच्छिन्नं भवति तत्र द्रव्यद्वयोः तिष्ठन्ति एव, परन्तु समवायः विच्छिन्नं भवति चेत् द्रव्यमेव न तिष्ठति.
इति तु सत्यम् एव. हा, इति बहूनि कारणानि सन्ति, तदर्थं करपत्रस्य पठनं भवतु इति प्रेषितवती, किन्तु समयः नास्ति अद्य. परन्तु एवमेव उत्थापितवती यत् समवायः इति तादृशसम्बन्धः अस्ति अथवा तादृशपदार्थः यः नित्यः अस्तु. तैः नैयायिकैः उच्यते यत् इदानीं घटे विद्यमानरूपम् इति अस्ति इति चिन्तयतु. अस्तु, घटस्य नष्टः भवति चेदपि घटे यः रूपसमवायः आसीत् सः रूपसमवायः न नश्यति इति, तादृशसम्बन्धः अस्ति समवायः. अस्तु, अपि च अतः कथञ्चित् ते वदन्ति यत् समवायः तु एकः एव इति. नाम इदानीं लोके यावन्तः पुत्राः पितरः सन्ति, तयोः मध्ये किं पुत्रत्वम् अथवा भ्रातॄणां मध्ये भ्रातृत्वम् इति सम्बन्धः तु एकः एव खलु? भ्रातरः नश्यन्ति चेत् तै भ्रातृत्वम् इति तु न नश्यति. तद्वदस्ति समवायः, कश्चन नित्यः पदार्थः अपि इति. करपत्रे एतत् सर्वम् अस्ति, समये सति अग्रिमसप्ताहे पश्येमः. किन्तु यथा भगिन्या उक्तम् अत्र विचारसौकर्याय समवायः एकः एव इति स्वीकृतमस्ति. अस्तु, अन्तिमपदार्थः अस्ति अभावः, प्रायः पञ्चनिमेषेषु तस्य पठनं किञ्चित् भवितुम् अर्हति इति भाति. तर्हि सभ्यमहोदय पठति वा?
आं भगिनि. अभाववर्णनं एतावता उद्देशक्रमानुसारेण षट् भावाः निरूपिताः. भावो नाम यः अस्ति इति प्रतीयते. यथा द्रव्यम् अस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति इति ज्ञायते, तद्भावं परिशीलयामः. किञ्चित् भूतलमस्ति, तत्र घटो यदि अस्ति तदा एवं व्यवहारामः, यत्र भूतले घटः अस्ति इति. यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति, घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति, तथा घटो नास्ति इति वक्तुं कः ज्ञातव्यो भवति, सः एव अभावः इति उच्यते। तर्हि अत्र पर्यन्तं वयं किं किम् अस्ति इति पठितवन्तः, तत्र ये भावाः सन्ति इत्युक्ते द्रव्यम् अस्ति, गुणः अस्ति, विशेषः अस्ति, समवायः अस्ति, एवमेवं वयं पठितवन्तः। परन्तु इदानीं पश्यामः किं नास्ति इति। नास्ति इत्युक्ते तत्र अभावः इति वदामः। तत्र तर्हि उदाहरणम् अत्र दत्तमस्ति, भूतलम् अस्ति, तत्र घटः यदि अस्ति तर्हि भूतले घटः अस्ति इति वदामः। परन्तु तत्र घटः ततः नयामः चेत् तर्हि अत्र घटः नास्ति, भूतले घटः नास्ति इति वदामः। तर्हि घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः, इत्युक्ते घटः अस्ति तत्र, तर्हि घटः अस्ति इति व्यवहारः भवति। परन्तु तत्र यदि घटः नास्ति तर्हि कथं वक्तुं शक्नुमः भूतले इदानीं घटः नास्ति, तर्हि तत्र अन्य एक पदार्थस्य आवश्यकम्, इत्युक्ते अत्र नामकरणम् आवश्यकं घटः नास्ति चेत्, तस्य नामम् अत्र अभावः इति उच्यते।
हा समीचीनं महोदय, घटः नास्ति इति व्यवहारार्थम् अभावः इति पदार्थस्य आवश्यकता आसीत्। अपि च यथा महोदयेन उक्तं, प्रथमषड् पदार्थाः द्रव्यगुणकर्मसामान्यं विशेषः समवायः भावपदार्थाः इति, एषः तु सप्तमः अभावपदार्थः इति उच्यते न्यायशास्त्रे। बालसुब्रह्मण्यं महोदय, अग्रिमपरिच्छेदं पठति वा, समापयामः तदनन्तरं। बालसुब्रह्मण्यं महोदय अस्ति किम्? अस्तु
महोदय।
आमां श्रूयते महोदय।
अत्र व्यवहारे अपि अस्ति विशेषः, पात्रे अस्मिन् कियत् जलम् अस्ति इति पृष्टे अर्धम् अस्ति इति कश्चित् वक्ति, कश्चित् तु अर्धं पात्रस्य रिक्तम् अस्ति इति वक्ति। पात्रं तु तदेव, जलमपि तावदेव, तथापि कश्चित् अस्ति इति वदति, कश्चित् नास्ति इति वदति। तद्वदेव सर्वैः अभावम् अधिकृत्य भूतले घटो नास्ति इति उच्यते। न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घट अभावः अस्ति इति उच्यते। अत्र अस्ति इति विशेषः, अस्मिन् कियत् जलम् अस्ति इति पृष्टे एतावत् जलम् अस्ति इति वक्तुं शक्यते। अपरस्मिन् शैली एतावत् जलं नास्ति इति वक्तुं शक्यते, पात्रे अर्धः जलम् अस्ति इति वक्तुं शक्यते, अथवा पात्रे अर्धः नास्ति इति अपि वक्तुं शक्यते।
तद्वदेव भूतले घटो नास्ति इत्यस्य वदनस्य स्थाने किं वक्तुं शक्यते अत्र?
भूतलस्य घटस्य अभावः अस्ति इति वक्तुं शक्यते।
भूतले घटाभावः अस्ति इति वक्तुं शक्यते,
घटाभावः।
समीचीनं, नास्ति इत्यस्य वदनार्थं नैयायिकाः अभावम् अभावः इति पदार्थं प्रतिपादितवन्तः। नास्ति इत्युक्ते अभावः अस्ति इति अर्थः इति सप्तमपदार्थः। अस्तु, इति सप्तपदार्थानां निर्देशः प्राप्तः एतावत्पर्यन्तं। कोऽपि प्रश्नः अस्ति वा? नो चेत् विरमामः, इतः अग्रे अग्रिमसप्ताहे गमिष्यामः।
धन्यवादः
भगिनी।
धन्यवादः भगिनी।
धन्यवादः भगिनी।